viene.
आरम्भं
करोमि.
दोता गिरः पुंसां विमलै शब्दभारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः.
धन्यवादः भगिनि.
नमस्कारः.
नमो
नमः.
सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपुल्लिङ्गशब्दानां परिचयः अपि अभ्यासः. गतवर्गे अपि तस्य पूर्वमपि तत्र वयं परिचयं तत्र परिचयरूपेण अभ्यासमपि कृतवन्तः, कथामपि पठितवन्तः. तत्र कथायाः पङ्क्तिशः परिशीलनं एतावत् तत्र मध्ये तस्य मध्ये स्मः इति मन्ये, तस्मिन् मध्ये स्मः इति मन्ये. अतः तत्र एकवारं तत्र पुनस्मरणरूपेण तत्र रूपाणि एकवारं पुनस्मरणं कृत्वा अग्रे कथायाम् अग्रे सरामः. अस्तु, तर्हि तत्र पी डि एफ् यद् अस्ति तत्र चतुर्थपुटे तत्र वणिज् सम्राज् इति रूपाणि सन्ति. तत्र पुनरेकवारं तत्र अभ्यासं कृत्वा अग्रे गच्छामः. तत्र गतवर्गे एतदेव स्वीकृतं, तदेव कुर्मः. तत्र रघुपतिमहोदय, तत्र भवान् वणिक् इति तत्र अस्तु. नरेश् महोदय, तत्र चतुर्थपुटं दृष्ट्वा तत्र वणिज् इति अस्ति, कोष्टकम् अस्ति तत्र, तत्र भवान् वणिक्. इदानीं द्विवचने रूपः रूपं किं भवति?
भवान् वणिक्.
भवान् वणिक् इति इदानीं द्विवचने रूपं किं?
द्विवचने भवान् वणिक्, भवन्तौ वणिजौ, भवन्तः वणिजः.
हा, वणिजः. समीचीनं महोदय, समीचीनं. जकारान्तपदं समीचीनम्. इदानीं ललिता भगिनी, तत्र भवान् धीमान् इति रूपं किं भवति द्विवचने बहुवचने? तत्र पी डि एफ् दृष्ट्वा वदतु भगिनि. फोर्थ् पेज्, ललिता भगिनि. अस्तु,
भवन्तः बहुवचन.
हा, भवन्तः, समीचीनं. हा,
धीमन्तः बहुवचन.
हा, इदानीं भवान् धीमान्,
भवान् धीमान्, धीमान् भवन्तौ, धीमन्तौ, भवन्तः धीमन्तः.
हा, समीचीनं. हा, समीचीनं भगिनि. इदानीं लक्ष्मी भगिनि, तत्र भवान् राजा,
भवान् राजा, भवन्तौ राजानौ, भवन्तः राजानः.
हा, समीचीनं भगिनि. कामाक्षी भगिनि, इदानीं तत्र भवान् सुहृत्,
भवान् सुहृत्, भवन्तौ सुहृदौ, भवन्तः सुहृदः.
समीचीनं भगिनि. हा, पूर्णेन्दुमहोदय, इदानीं तत्र भवान् विद्वान्,
विद्वान्
तस्मिन् पुटे एव अदौ अन्तिमम् अस्ति महोदय, फोर्थ् पेज्.
महोदय, प्राप्तवान् महोदय. भवान् विद्वान्, भवन्तौ विद्वांसौ, भवन्तः विद्वांसः.
हा, इति. अतः तत्र रूपस्य पुनस्मरणं किञ्चित् अभवत् इति मन्ये. अतः अग्रे गच्छामः. तत्र कथा अस्ति दशमे पुटे पी डि एफ् मध्ये इति मन्ये, अन्तिमपद पुटद्वयं दशमे पुटे अस्ति. तत्र हलन्तपुल्लिङ्गशब्दः इति, तत्र वयम् एकवारं पठितवन्तः. तत्र प्रायशः प्रथमपरिच्छेदः द्वितीयपरिच्छेदः अपि अस्माभिः परिशीलितः इति मन्ये. किन्तु तत्र पुनरेकवारं तत्र प्रथमपरिच्छेदे पुनरेकवारं तत् पठामः. तत् तत्र किमस्ति इति एकवारं कोऽपि वदतु. तत्र नरेश महोदय प्रथमपरिच्छेदं पठति वा?
भगवान् श्रीकृष्णः द्वारकायाः राजा आसीत्. तस्य अनेके सहपाठिनः सहृदः च आसन्. ते सर्वे मिलित्वा वने गाः चारयन्ति स्म. तेषु कृष्णः प्रधानं च अन्तरङ्गौ सहृदौ आसन्. सुदामा कृष्णस्य अतीव प्रियः आसीत्. तस्मिन् कृष्णस्य भूयमं स्नेहः आसीत्. क्रोधे वयसि मथुरणं विहाय कृष्णः द्वारकापुरीं गतवान्. तत्र सः राजा अभवत्. एवं तस्य बाल्यसुहृद्गृह साक्षात्
सर्वे स्मरन्ति वा तत्र अस्मिन् परिच्छेदे किम् उक्तम् इति? तत्र श्रीकृष्णः अपि सुदामतयोः स्नेहस्य विषये किञ्चित् दत्तमस्ति खलु. किन्तु इदानीं तत्र श्रीकृष्णः कुत्र अस्ति इदानीम्? अत्र कथायां कथायां प्रथमपरिच्छेदे तत्र श्रीकृष्णः कुत्र अस्ति इति द्वारकायाम् अस्ति. द्वारकायाम् अस्ति. हा अपि तत्र सुदाम समीपे अस्ति वा दूरे अस्ति वा? हा दूरे अस्ति. हा दूरे अस्ति. अस्तु. हा अपि श्रीकृष्णः इदानीं राजा अस्ति. तत्र द्वारकायाः राजा अस्ति. हा इदानीं तत्र एतत् कुर्मः. तत्र भगवान् इति पदमस्ति. तत्र द्विवचन बहुवचनरूपं किम् अस्ति? ये प्रथमविभक्तौ भगवान् भगवन् भगवन्तः. हा इदानीं यदा राजा राजानः. समीचीनम्. इदानीं तत्र सः पाठिनः इति अस्ति. तत्र वचनं किम्? सहपाठिनः. अतः एकवचनरूपं किम् अस्ति?
सहपाठिनः.
समीचीनं.
दीर्घ.
दीर्घै. समीचीनं भगिनि. हा समीचीनं. सहपाठी इति दीर्घ ईकारः. द्विवचने दीर्घः वा ह्रस्वः वा?
द्विवचने
ह्रस्व. हा केवलम् एकवचने दीर्घः. समीचीनं भगिनि. सहपाठी सहपाठिनौ सहपाठिनः. समीचीनं. सुहृदः तत्र रूपं किम्? हा बहुवचनमस्ति. एकवचने सुहृत् सुहृदः. समीचीनं. सुहृदौ अपि दत्तमस्ति. हा अपि इदानीं भूयान् इति तत्र प्रातिपदिकं किम्? भूयान् इति. भूयान् इति एकवचने अपि भूयस्
विद्वान्.
हा अतः भूयान् विद्वान् इति. विद्वान् विद्वांसौ विद्वांसः. भूयान् किं भवति? भूयान् भूयांसौ भूयांसः इति. भूयांसः. समीचीनं. हा तदनन्तरं राजा इति अस्ति. तत्र अपि हलन्तपदानां अधिकः स्नेहः इति. भूयो भूयो नमाम्यहम् इति अस्ति खलु. तत्र तत्र तु हा पुनः पुनः इति अर्थे अपि तत्र. हा किन्तु बहु इति. हा अपि अत्र अस्मिन् परिच्छेदे तत्र सुदाम च अन्तरङ्गौ सुदामकृष्णस्य. तत्र वयं चिन्तयामि तत्र. हा सुहृद्भ्यः तद्भवति सुहृत् पदस्य पञ्चमी विभक्ति बहुवचनं तद् अग्रे आयाति किन्तु तद् अस्तु इदानीम् अग्रे गच्छामः तत्र कामाक्षी भगिनी अग्रे पठति वा द्वितीयपरिच्छेदम्
आरम्भात् एव सुदामा निर्धनः आसीत् सः न केवलं कृष्णस्य सुहृद् आसीत् किन्तु तस्य भक्तः अपि आसीत् दारिद्र्यवशात् यद्यपि सुदामा महति कष्टे आसीत् तथापि तत् प्रतिकाराय किञ्चित् न अकरोत् सः केवलं कृष्णं भजति स्म तद् दृष्ट्वा तस्य पत्नी तम् उक्तवती आर्यपुत्र भवतः सुहृत् इदानीं द्वारकायाः राजा वर्तते भवान् तं नयित्वा किमर्थं स्वकष्टविषये न सूचयति सः भवतः साहाय्यम् अवश्यमेव आचरिष्यति
इदानीं तत्र किं दत्तमस्ति तत्र सुदामा निर्धनः इति जानीमः
महोदय किञ्चित् इको भवति
इको अस्ति अस्तु सत्यं महोदय
श्रूयते
सत्यं इदानीं नास्ति समीचीनम् इदानीं समीचीनं अस्तु तत्र अत्र किं दत्तमस्ति एतत् परिच्छेदं गतवर्गे पठितवन्तः कोऽपि वक्तुम् इच्छति वा कामाक्षी भगिनी भवती एव किञ्चित् वक्तुम् इच्छति वा तत्र
आरम्भकालतः सुदामा निर्धनः एव अस्ति सा राजा समानं नास्ति निर्धनः एव अस्ति तस्य समीपे धनम् अधिकं नास्ति सः न केवलं कृष्णस्य सुहृत् आसीत् स कृष्णस्य मित्रमेव नास्ति सः कृष्णस्य भक्तः अपि आसीत्
वशात् इत्युक्ते कारणात् सः दरिद्रः इति कारणात्
सुदामा दरिद्रः आसीत् अपि तस्य महति कष्टकाले अपि तस्य कष्टं किञ्चिदपि न अकरोत्
तत्र तत् प्रतीकाराय इत्युक्ते तस्य निवारणार्थं तत्र कष्टं दूरीकर्तुं सः किञ्चित् अपि न अकरोत् किमपि न सः किमपि न कृतवान् सः दारिद्र्यं दारिद्र्यवशात् सुदामः महति कष्टे इति सप्तमी महत् कष्टं
महति कष्टे तत् प्रतीकाराय चतुर्थी सः केवलं सर्वदा कृष्णम् एव भजति तत् एतत् दृष्ट्वा तस्य सुदामायाः पत्नी वदति
तत्र सुदामायाः इति नास्ति तत्र सुदामः इति सुदाम्नः इति प्रायशः
सुदाम्नः
सुदाम्नः षष्ठी न
सुधामन् इति प्रातिपदिकं
सुदामन्
अतः सुदामा इति
सत्यं सत्यं इदानीम् एतावत् षष्टि न कृतं किन्तु प्रायशः तत्र कुत्रापि अस्ति अत्र अतः तत्र तस्य पत्नी इति इदानीं वदामः
तस्य पत्नी वदति भोः भवतः कृष्णस्य समीपं भवतः
मित्रम्
अस्ति द्वारकायाः राजा तत्र गत्वा भवतः वदतु
भवान् वदतु तत्र
अस्माकं कष्टनिवारणार्थं सः किमपि कर्तुं शक्यते
इति पृच्छतु तत्र गत्वा तत्र गत्वा कृष्णस्य समीपे गत्वा तत्र स्वकष्टम् अस्माकं कष्टं तस्य तस्य विषये सूचनं करोतु सूचयतु सः निश्चयेन अवश्यमेव इत्युक्ते निश्चयेन
साहाय्यं
करोति, साहाय्यं करोति. समीचीनं भगिनि, हा समीचीनम् अस्ति. अस्तु, एतावत् गतवर्गे पठितवन्तः, इदानीम् अग्रे गच्छामः, पङ्क्तिशः पठामः. अस्तु, तत्र पूर्णेन्दुमहोदय अग्रे पठति वा?
आदौ सुधामा तदर्थम् उद्यतः न अभवत्. स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान् स्वार्थाय सहृदे कष्टं न दातव्यं किल. अपरं च किं त्वं न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते. राजकार्येषु व्यग्रतया कदाचित् सः अस्मान् विस्मृतवान् स्यात्. स एव तादृश्यां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भवति इति. आदौ सुधाम तदर्थम् उद्यतः न अभवत्.
तदर्थम् इत्युक्ते किमर्थं
किं कर्तुं
तस्य
पत्नी.
तत्र तदर्थम् इत्युक्ते तत्र तदर्थम् उद्यतः इति प्रथमतया यदि पश्यामः तत्र तदर्थम् इति सुलभं भवति महोदय. उद्यतः इत्युक्ते
उद्यतः उद्यतः इत्युक्ते
उत्सुकः, उत्साहः, तस्य उत्साहः. यस्मिन् उत्साहः इति तत्र उत्सुकः इति वदामः. सुधामः उत्सुकः, एक्सैटेड् और् इण्ट्रेस्टेड् इति अर्थे उत्सुकः. उद्यतः न अभवत्. इदानीं किं कर्तुम् अथवा किमर्थं तत्र तदर्थं किं कर्तुं सः न उद्यतः.
द्वारका इति आकारान्त
स्त्रीलिङ्गपदं द्वारका. द्वारकायाः पूर्वम् आसीत् खलु महोदय, द्वारकायाः. इदानीं तत्र द्वारकायाः राजा वर्तते इति.
अतः अत्र द्वितीयविभक्तिप्रयोगः भवति. द्वारकां गत्वा कृष्णे निवेदयितुं न उद्यतः.
समीचीनं महोदय.
स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान्. स्वमतं सम्पोषयन् इत्युक्ते सुधाम्नः मतः आसीत् सः यथा
न गन्तव्यमिति, न गन्तव्यमिति तस्य मतं.
न गन्तव्यम् आमां, न गन्तव्यम् इति तस्य मतं.
पत्न्याः मतं गन्तव्यम् इति. इदानीं तस्य मतं सम्पोषयन् तस्य पोषणं, तस्य वर्धनं.
तस्य स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान् स्वार्थाय सहृदे कष्टं न दातव्यं किल. सः पत्नीं प्रबोधयन्ति कि स्वार्थ किमपि अर्थाय इत्युक्ते स्वस्य अर्थाय स्वार्थाय सहृदे कष्टं न दातव्यम् इति. अपरं च
एतत् समीचीनं नास्ति. तद् यद् भवती उक्तवती तत् समीचीनं नास्ति. किमर्थम् इत्युक्ते तत्र स्वार्थाय सुहृदे कष्टं न दातव्यं किल. अपि
अपरञ्च किं त्वं न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते. अत्र महान् राजा प्रथमाविभक्तौ एकवचने अस्ति महोदय.
सत्यं सत्यम्. अपि तत्र किं विशेषणविशेषभावः,
विशेषणविशेषभावः
अस्ति तत्र. इदानीं महान् राजा वर्तते, अस्ति, अभवत्, सः अस्ति.
इदानीं यतोहि सः महान् राजा अस्ति, राजकार्येषु व्यग्रता व्यस्तता अपि भवेत्, अतः व्यस्ततकारणवशतः सः अस्माकम् अस्मान् विस्मृतवान् स्यात्।
हा स्यात्, स्यात् इति रूपं प्रायश जानीमः, तत्र स्यात् इति
अस्ति
इत्यस्य विधिलिङ्गकारः।
हा विधिलिङ्गकारः अत्र विस्मृतवान् सः, तत्र सः विस्मृतवान्, सः विस्मृतवान् किम् अथवा कं विस्मृतवान्? अस्मान् विस्मृतवान्। तत्र व्यग्रतया इति, तत्र व्यग्रतया इति रूपं किम् अस्ति महोदय?
व्यग्रतया
तत्र विभक्ति का
तृतीया,
तृतीया व्यग्रता, व्यग्रतया आकारान्तपदम्। अपि तत्र तस्य उपरि सुहृदे इति अस्ति, तद् इदानीं न जानीमः, किन्तु सुहृदे इति चतुर्थी, चतुर्थीरूपं। हा
समीचीनं,
हा समीचीनं, दातव्यम् अस्ति सत्यम्, अतः चतुर्थी एव अस्ति तत्र। हा हा अपि अपरम्, अपरं च इत्युक्ते
अपरं च, अपरं च
इत्युक्ते एकः अंशः अस्ति तत्र, स्वार्थाय सुहृदे कष्टं न दातव्यम् इति एकः अंशः, केवलम् एकः अंशः नास्ति, अपरः अंशः अपि अस्ति इत्युक्ते इति अग्रे वदति खलु।
महान् राजः,
अतः तत्र अंशद्वयम्, अंशद्वयं सः दत्तवान् स्वमत, स्वमतस्य पोषणाय, इदानीम्
अत एव एतादृशं स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति इति। अत्र सुधामहोदय तस्य पत्न्यां पुनः तस्य कथनस्य किं सम्पोषणाय पुनः अन्य एक पुनः वदति, एतादृशां स्थितौ स्वार्थाय केवलं स्वार्थाय कृष्णेन सह मेलनम् उचितं न भवति इति तस्य मतः इति वदति।
समीचीनं महोदय, समीचीनम्। अतः अत्र प्रश्नः अस्ति वा? अत्र तत्र स्थितौ इति अस्ति, तत्र स्थितौ इति रूपं किं?
सप्तमे,
हा स्थितिः, स्थितौ, स्थितिः, एतादृशी स्थितिः, एतादृश्यां स्थितौ, समीचीनं महोदय। अस्तु अग्रे तत्र ललिता भगिनी अग्रे पठति वा?
सुदाम्नः मन्तव्यं श्रुत्वा तस्य पत्नी पुनः आग्रहं कृतवती, नहि नहि आर्यपुत्र, कृष्णस्य विषये मया बहुधा श्रुतमस्ति, सः तु विद्वान्, गुणग्राही, सहृत्प्रेमी, भक्तानाम् उद्धारकः, दरिद्राणां च पोषकः अस्ति, अतः सः एवं न आचरिष्यति। भवान् एकवारं गत्वा तं मिलतु, स्वकष्टं न स्वकष्टं च श्रावयतु इति।
हा समीचीनं भगिनि, अत्र एतत् रूपं न जानीमः, सुदाम्नः इति न जानीमः, किन्तु ऊहा कर्तुं शक्नोति वा सुदाम्नः इति?
सुदाम्नः पञ्चमी विभक्ति, षष्टि विभक्ति,
सुदाम्नः
षष्टि विभक्ति,
मन्तव्यम् इत्युक्ते तस्य मतं, तस्य चिन्तनम्, ओपिनियन्, तत्र तादृशरूपम् अस्ति कर्तव्यम् इति, तद् यत् सः मन्यते, यः सः मन्यते, यः सः अहं मन्ये,
तादृशरूपं,
तादृशरूपं, किन्तु सः सः वदति खलु एतद् न कर्तव्यम् इति, किं कर्तव्यं किं न कर्तव्यम् इति, तस्य सत्यं भगिनि
कृत्वा तस्य पत्नी
पुनः
आग्रहम् आग्रहम्
पुनः इन्सिस्ट् इन्सिस्ट् इन्सिस्ट्
उक्तवती कि कृष्ण
नहि नहि हरिपुत्र
नहि नहि कृष्णस्य विषये सा बहुधा श्रुतमस्ति
इति नास्ति मया 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 इति मया मया इति अस्ति मया
मया
यदि सा अस्ति चेत् किं रूपं किं भवति कृष्णस्य विषये अहं कर्मणि समीचीनं भगिनि अहं बहुधा श्रुतवती श्रुतवती किन्तु अत्र मया बहुधा श्रुतमस्ति बहुधा इत्युक्ते तत्र अनेकवारम् अनेकवारम् अनेकविधा अनेकविधा श्रुतमस्ति सः तु
विद्वान् गुणग्राही
तत्र विद्वान् इत्युक्ते किं
विद्वान् एकवचन
तत्र
एकवचन
विद्वस् इति विद्वस् इति पदस्य तत्र जानाति गुणग्राही यस्मिन् गुणः अस्ति सः गुणिन् अत्र गुणग्राही गुणं गुणस्य ग्रहणं करोति अतः गुणग्राही अपि सहृद् प्रेमी इत्युक्ते तत्र तत्र स्नेहभावः अस्ति मित्रस्य कृते स्नेहभावः भक्तानाम् उद्धारकः भक्तः तेषाम् उद्धारणार्थं सः तस्य सः उद्युतः अस्ति सर्वदा उद्युतः अस्ति श्रीकृष्णः
भक्तानां बहुवचनं षष्ठी विभक्ति
अपि दरिद्राणाम् इति अपि षष्ठी बहुवचनं
दरिद्रजनानाम् अपि
पोषकः 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 पोषणं करोति दरिद्रान् अतः एतादृश कृष्णः कृष्णः कीदृशः अस्ति सः विद्वान् अस्ति गुणग्राही अस्ति सुहृत्प्रेमी अस्ति अपि उद्धारकः अपि पोषकः अस्ति एतादृशकृष्णः तु यथा भवान् उक्तवान् तथा न आचरिष्यति तादृश तादृश आचारं श्रीकृष्णः न करोति न करोति न करोति एव भवान्
भवान्
पुनः इत्युक्ते पतिं 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 वा वदति
एकवारं गत्वा मिलतु कृष्णं
श्रीकृष्णं मिलतु
कृष्णमेलनार्थं स्वकष्टं गच्छतु इति
स्वकष्टं तत्र वदतु तत्र श्रावयतु
उक्तवती
इति उक्त
श्रावयतु
श्रावयतु तत्र निश्चिति श्रावयतु
समीचीनं
लोट्लकारः 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 समीचीनं रघुवीरानन्दमहोदय नमस्कारः मिलतु अपि लोट्लकारः समीचीनं भगिनि समीचीनम् अस्तु इदानीम् अग्रे गच्छामः समीचीनं
हरि ओम् महोदय
नमस्कारः महोदय रघुवीरानन्दमहोदय नमस्कारः अत्र पि डि एफ् मध्ये अन्तिमे पुटे स्मः महोदय कथा यत् गतवर्गे पठितवन्तः तत्र अन्तिमे पुटे स्मः महोदय इदानीं तत्र लक्ष्मी भगिनी अग्रे पठति वा
अस्तु अस्तु पत्न्याः आग्रहेण उत्साहितः सुदामा द्वारकायात्रायै सज्जः अभवत्.
आग्रहेण पत्न्याः इति विभक्ति का तत्र?
पत्न्याः षष्ठी विभक्ति.
षष्ठी. आग्रहेण इति?
आग्रहेण तृतीया.
तृतीया. समीचीनं भगिनि. तत्र पत्न्याः आग्रहेण माध्यमम् अस्ति. तत्र सुदाम उत्साहितः अस्ति. केन उत्साहितः? आग्रहेण. कस्य आग्रहेण? पत्न्याः
आग्रहेण.
आग्रहेण सुदाम उत्साहितः अस्ति. किं कर्तुम् उत्साहितः सः?
गन्तुम्
उत्साहितः अस्ति. उत्साहितः अस्ति. इदानीं तत्र द्वारकायात्रायै सज्जः. यात्रा द्वारका यात्रां कर्तुं सः सज्जः.
सज्जः
अभवत्.
पद्भ्यां गच्छन् सः द्वारकां प्राप्तवान्.
तत्र पद्भ्यां, पद्म्याम् इति वचनं किं तत्र?
द्विवचनं. तृतीयविभक्ति.
तृतीयविभक्ति द्विवचनं. समीचीनं भगिनि. माध्यमं माध्यमम् अस्ति. पद्भ्यां गच्छति. समीचीनं भगिनि. गच्छन् इति तत्र किमर्थं तत्र स्थूलाक्षरैः दत्तमस्ति? समीचीनं भगिनि. गच्छत् इति तकारान्तपदं. गच्छन्, गच्छन्तौ, गच्छन्तः इति रूपं भवति. पुल्लिङ्गे. स्त्रीलिङ्गे किं भवति जानाति वा?
गच्छन्ति.
गच्छन्ति इति ईकारान्त साधारण अजन्तपदं दीर्घ नदी शब्दवत् गच्छन्ति. किन्तु पुल्लिङ्गे अत्र हलन्तपदम् अस्ति. गच्छत् इति गच्छन्, गच्छन्तौ, गच्छन्तः इति. सः द्वारकां
प्राप्तवान्. राजद्वारे राजकर्मचारिणः तस्य प्रवेशं न अनुमतवन्तः.
तत्र अवगच्छति खलु भगिनि, तत्र राजकर्मचारिणः
तस्य
प्रवेशं
न अनुमतवन्तः.
इत्युक्ते तत्र प्रवेशं कर्तुं
न दत्तवन्तः.
प्रवेशं कर्तुम् अनुमतिं न दत्तवन्तः. समीचीनं भगिनि. तत्र अनुमतवन्तः, तत्र एकवचने रूपं किं भवति? अनुमतवान्, अनुमतवन्तौ, अनुमतवन्तः. समीचीनं. प्रातिपदिकम् अनुमत
अनुमतवत्
अनुमतवत्. समीचीनं भगिनि. अनुमतवत्. समीचीनम्. अग्रे भगिनि.
राजा कृष्णः मम सुहृत् अस्ति इति सुदामा स्वपरिचयं प्रस्तुतवान्.
सः स्वपरिचयं करोति.
स्वस्य परिचयं कृतवान्. अहं कृष्णस्य सुहृदः इति सः
सुहृद् अस्मि इति. सुहृद् अस्मि इति. किन्तु
राजकर्मचारिणम् उक्तवान्. किन्तु कर्मचारिणः तस्य वाचि न
विश्वसितवन्तः. अनुमतवन्तः तादृशरूपमेव. कर्मचारिणः तत्र एकवचने किं भवति? कर्मचारिणः. समीचीनं. तत्र वाचि इति अस्ति. तद् अपि तत्र अग्रे एतत् पठामः. तत्र वाचि इति कोऽपि जानाति वा तत्र कीदृशपदम् इति? वाचि
वाक् इति अस्ति. वाच् वाच् इति अस्ति.
वाच् वाच् इति स्त्रीलिङ्गहलन्तपदम्. अग्रे अग्रिमे अध्याये आयाति. तत्र वाचि इति विभक्ति का?
सप्तमी.
सप्तमी. विश्वासः. विश्वासः. तत्र विश्वासं न कृतवन्तः. तस्य वाचि न विश्वासं कृतवन्तः, विश्वसितवन्तः. अग्रे भगिनि. ते
तस्य परिहासं कृतवन्तः.
तस्य परिहासं. कस्य परिहासं?
सुदामायाः
हा सुधामा इति अस्ति सुधाम्नः सुधाम्नः रूपं हा षष्ठी पठितवन्तः खलु इदानीमेव सुधाम्नः मन्तव्यम् इति हा हा सुधाम्नः परिहासं कृतवन्तः
अस्मिन् एव अवसरे कृष्णः दूरात् सुधामानं दृष्ट्वा स्वयं तत्र आगतवान्
अस्मिन् एव अवसरे अस्मिन् एव सन्दर्भे यथा एतद् भवति स्म तत्र कर्मचारिणः परिहासं कृत्वा कुर्वन् सन्ति तस्मिन् समये एव श्रीकृष्णः
दूरात् सुधामानं दृष्ट्वा
हा सुधामानम् इति विभक्तिः सुधामानम् इति द्वितीयविभक्ति हा सुधामा अस्ति सुधामानम् श्रीकृष्णः दूरात् एव सुधामानं पश्यति दृष्ट्वा स्वयं तत्र आगतवान् आगतवान् समीचीनं भगिनि अग्रे
आलिङ्गनपूर्वकं
अभिनन्द्य अभिनन्द्य अभिनन्दनानि अभिनन्दनानि इति वदामः खलु
अभिनन्द्य सः सुधामानम् अन्तःपुरं नीतवान् सः आलिङ्गनं कृत्वा
न न न पूर्वकम् आलिङ्गपूर्वकम् अभिनन्द्य
आलिङ्गपूर्वकम् अभिनन्द्य सः सुधामानम् अन्तःपुरं नीतवान्
हा तत्र अभिनन्द्य इति रूपं कीदृशरूपं जानाति वा लेबन्तरूपम् अभिनन्द्य गत्वा आगत्य इति अस्ति खलु तादृश अभिनन्द्य अभि इति अस्ति खलु तत्र उपसर्गः अभिनन्दनं कृत्वा तदनन्तरम् आलिङ्गनमपि कृत्वा तदनन्तरं श्रीकृष्णः सुधामानम् अन्तःपुरं नीतवान्
परिचयं सम्प्राप्य सत्यभामा सुधाम्नः पादौ प्रक्षाल्य वस्त्राञ्जलेन
प्रोञ्चितवती तत्र परिचयं सम्प्राप्य तत्र परस्परपरिचयं तत्र श्रीकृष्णः परस्परपरिचयं करोति तत्र सुधामा अपि सत्यभामायाः तयोः परस्परपरिचयं करोति परिचयं सम्प्राप्य पुनः लेबन्तपदं सत्यभामा सुधाम्नः षष्ठी सुधाम्नः पादौ प्रक्षाल्य वस्त्रस्य अञ्चलेन अञ्चलम् इत्युक्ते किम् एड्ज् इति बार्डर् इति वस्त्रस्य अञ्चलं वस्त्राञ्चलेन तृतीया प्रोञ्चितवती इत्युक्ते तत्र यज्जलम् अस्ति तत् तत्र जलस्य निवारणं कृतवती तत्र वैप् इति यत् वदामः तत्र तत् कृतवती तत्र भगिनी पादौ इति अस्ति तत्र विभक्ति का पादौ प्रक्षाल्य सुधाम्नः पादौ तत्र वचनं तु द्विवचनं खलु वचनं तु द्विवचनं पादः पादौ पादाः पादं पादौ पादान् द्वितीयविभक्ति किं प्रक्षालयति सत्यभामा अतः कर्मपदमस्ति पादौ प्रक्षाल्य द्विवचने अस्ति अतः तत्र पादौ इति अस्ति अतः न जानीमः तत्र प्रथमविभक्ति वा द्वितीयविभक्ति वा इति समीचीनं भगिनि समीचीनम् अग्रे नरेश महोदय वदति वा अग्रे आगमनसमये यदा सः गच्छति द्वारकां सुधामः गच्छति तस्मिन् समये तस्य
पत्नी कृष्णस्य कृते प्रेषयतु अपि
पृथुकान् 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 इति पृथुकः पृथुकौ पृथुकाः इदानीं तत्र द्वितीयविभक्ति बहुवचनरूपं पृथुकान् पृथुकान् इत्युक्ते वयं सर्वे जानीमः खलु पोहा इति पृथुकान्
प्रेषितवान् स्म
हा तत्र तान् इत्युक्ते कान्
पृथुकान्
हा तान् पृथुकान् न निष्कासयति स्म निष्कासयति तत्र निष्कासयति निष्कासयामः इत्युक्ते तत्र तत् त्यजामः इति एकः अर्थः अस्ति किन्तु अत्र कः अर्थः तत्र अन्ते अस्ति तत् हा तत् उद्घाट्य तत्र बहिः बहिः प्रदर्शितुं प्रदर्शितुं स न प्रदर्शितवान् अतः तत्र अन्ते एव अस्ति तत्र किमर्थं सः किमर्थम् एतादृशं सः कृतवान् तत्र न प्रदर्शितवान् हा सङ्कोचवशात् तत्र कस्मात् कारणात् इत्युक्ते सङ्कोचात् अथवा सङ्कोचवशात् इति एतद् एतादृशं कृतवान् सः अग्रे
परन्तु अनवधानात् यदा पुत्तलिका यदः पतिता तदा कृष्णः झटिति ताम् उन्मोच्य सहर्षं पृथुकान् खादितवान्
तत्र परन्तु किन्तु अनवधानात् अनवधानं सावधानम् इति वदामः तत्र तस्य विपरीतं तत्र अनवधानम् अनवधानम् आसीत् अनवधानात् किम् अभवत् हा अधः पतिता अधः पतिता तत्र पोट्टलिका पतिता विशेषणविशेषभावः पतिता पोट्टलिका पोट्टलिका पतिता अस्ति अधः पतिता अस्ति पोट्टलिका इत्युक्ते किं पार्सल् इति पोट्टलम् इति तत् सर्वासु भाषासु एतादृशपदम् अस्ति इति मन्ये पोट्टलिका पोट्टला इति अधः पतिता तदा किं श्रीकृष्णः किं कृतवान्
कृष्णः झटिति गृहीतवान्
तम् उन्मोच्य 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 अस्ति तत्र उद्घाट्य तत्र पोट्टलिका अस्ति तां पोट्टलिकाम् उन्मोच्य तत्र उद्घाट्य
पश्यति खादितवान्
तत्र हर्षितवान् सन्तोषेन सः पृथुकान् खादितवान् समीचीनं महोदय अग्रे
सुधामा राजप्रसादाय
न प्रासादे प्रासादे
प्रासादे कतिचित् दिनानि पृषित्वा रक्तहस्तः एव गृहं प्रत्यागतवान् सुधामा तत्र प्रासादे अस्ति किञ्चित् दिनानि परन्तु
उषित्वा तत्र प्रासादः अपि प्रसादः भेदः कः
प्रासादे राजगृह
राजगृहः अस्ति प्रासादः राजप्रासादः राजगृहः पालेस् इति यत् वदामः तत् राजप्रासादे सप्तमे कतिचित् दिनानि उषित्वा तदनन्तरं सः किं कृतवान् तत्र आसीत् सः कतिचित् दिनानि तत्र उषित्वा तदनन्तरं सः गृहं प्रत्यागतवान् किन्तु रिक्तहस्तः रिक्तहस्त इत्युक्ते सः किमपि न हस्ते किमपि नासीत् यस्य तत्र रिक्तहस्तः इति तत्र बहुव्रीहि समासः इति मन्ये यस्य हस्तः रिक्तः सः रिक्तहस्तः हस्तः इति तस्य विशेषणं नास्ति किन्तु यस्य हस्तः रिक्तः सः रिक्तहस्तः रिक्तहस्तः एव गृहं प्रत्यागतवान् सुधाम अग्रे
सः इच्छन् अपि सन्तोषवशात् स्वप्रयोजनविषये मित्रं वक्तुं न पारितवान् सः वक्तुम् इच्छति परन्तु सङ्कोचवशात् न अवदत्
न अवदत् समीचीनं महोदय सङ्कोचवशात् स्वप्रयोजनविषये तस्य कष्टस्य विषये सः श्रीकृष्णं किमपि न वक्तुं तत्र तस्य शक्तिः न आसीत् तत्र इच्छन् इति तत्र तत्र पठन् इति शत्रन्तरूपम् इच्छन् इच्छन् द्विवचने रूपं किं भवति इच्छन्तः इति समीचीनं महोदय तत्र सङ्कोचवशात् पूर्वमासीत् कारणं किमर्थम् अत्र कस्मात् कारणात् सङ्कोचवशात् इति एव अग्रे महोदय
परन्तु भगवान् भावग्राही वर्तते परन्तु भगवान् सम्यक् जानाति
तस्य अन्ते अन्ते कः भावः अस्ति इति सः भगवान् सम्यक्तया जानाति भावग्राही भावस्य ग्रहणं कर्तुं शक्नोति भावग्राही तत्र द्विवचने किम् अस्ति भावग्राही भावग्राही इति अस्ति न न भावग्राही तत्र तत्र ग्राहिणौ इति प्रायश ग्राहिणौ इति प्रायश अस्ति महोदय ग्राहिणौ ग्राहिणः इति भावग्राहिणः इदानीं तत्र विशेषणमपि योजयामः तत्र भगवान् भावग्राही द्विवचने भगवन्तौ
भावग्राहिणौ
ग्राहिणः समीचीनं महोदय अग्रे
सः कथ्यम् अकथ्यं सर्वं सत्यं जानाति
सः कथ्यम् अकथ्यम् इत्युक्ते कथ्यम् इत्युक्ते तत्र क्रियापदं किमस्ति कथयति इति जानीमः खलु तत्र कथयति यत् कथयामः यत् कथयामः तत् कथ्यं तत् कथ्यं यस्य विषये किमपि यस्य विषये वयं किमपि वदामः तत् सः विषयः कथ्यः अत्र कथ्यम् अकथ्यम् इत्युक्ते यद्वयम् उक्तवन्तः यस्मिन् विषये वयं न उक्तवन्तः द्वयमपि सर्वं तथ्यं तथ्यम् इत्युक्ते कथ्यम् अकथ्यं तद् तद् उक्तं नोक्तं किन्तु तथ्यं तथ्यम् इति सर्वं तथ्यं तत्र सर्वं सत्यम् इति तत्र तथ्यम् इति यत् अस्ति तद् ट्रुत् इति सर्वं तथ्यं सर्वं सत्यं सर्वं यत् अभवत् सर्वम् अथवा यत् भवति सर्वं सः श्रीकृष्णः भगवान् जानाति सः जानाति अग्रे
गृहम् आगत्य सुधाम दृष्टवान् यत् तस्य गृहस्य रूपं परिवर्तितम् अस्ति
तस्य गृहस्य
गृहे प्राप्तवान्
गृहं प्राप्तवान् गृहं प्राप्तवान्
तत्र सः दृष्टवान् गृहं परिवर्तितम् अस्ति
गृहं परिवर्तितम् अस्ति अपि
तस्य पत्नी अपि बहुमूल्यैः आभूषणैः अलङ्कृता वर्तते तस्य पत्नी अपि बहुमूल्यभूषणं प्राप्तवती.
हा तत्र तत्र किमस्ति, तत्र पत्नी अलङ्कृता वर्तते, तत्र विशेषणविशेष्यभावः खलु. पत्नी अलङ्कृता वर्तते, तत्र पुरुषः अस्ति चेत् अलङ्कृतः पुरुषः, किन्तु पत्नी अलङ्कृता. विग्रहमस्ति चेत् अलङ्कृतं विग्रहम्, अत्र पत्नी अलङ्कृता. केन अलङ्कृता? आभूषणैः. आभूषणैः अलङ्कृता. कीदृशैः आभूषणैः इत्युक्ते बहुमूल्यैः आभूषणैः पत्नी अलङ्कृता वर्तते. तदपि अभवत्, तत्र गृहस्य रूपं परिवर्तितम्, अपि अत्र तस्य पत्नी आभूषणैः अलङ्कृता अपि वर्तते. इदानीम् अग्रे एतत्
एतत् सर्वं कथं घटितम् इति विषये सुधाम आश्चर्यं प्रकटितवान्
प्रकटितवान् घटितं घटितम् इत्युक्ते घटना इति वदामः खलु, घटना यत् अभवत्, एतत् कथम् अभवत् इति, एतत् कथं घटितम् इति, एतत् सर्वं कथं घटितम् इति विषये हा आश्चर्यं प्रकटितवान्. ओ अहं न जानामि एतत् कथम् अभवत् इति. हा तदा
श्रीमन् भवतः गमनात् परं कश्चन बालपथितः अस्माकं गृहम् आगतवान्.
भवतः गमनात् परं, पूर्वम् इति तस्य विरोधार्थकमस्ति परम् इति, तदनन्तरं गमनानन्तरं गमनस्य अनन्तरं
बालपथितः.
हा पथिकः इत्युक्ते पथिकः इत्युक्ते यः प्रवासं करोति, यः प्रवासं करोति सः पथिकः, ट्रावेलर् टूरिस्ट् इति. किन्तु एषः बालपथिकः, साधारणपथिकः नास्ति, सामान्यपथिकः नास्ति, बालपथिकः अस्ति. सः अस्माकं गृहम् आगतवान्. तस्य
आगमनं मात्रेण एतत् सर्वं स्वतः अजायत. पत्नी तं सूचितवती. बालपथिकः आगमनेन
आगमनात् आगमनात् अथवा तस्य आगमनात् एव
सर्वम् अभवत्.
एतत् सर्वं स्वतः स्वतः, तत्र किमपि करणीयं नासीत्, स्वतः एव तेनैव एतत् सर्वम् अभवत्. अजायत, अजायत इति लङ्लकारः. किमर्थं तत्र अजायत् इति नास्ति, अजायत इति अस्ति तत्र, अजायत इति न स्वतः सर्वं जायत, किन्तु तत्र अजायत इति एकवचने अस्ति, तत्र किन्तु लट्लकररूपं किम् अस्ति, प्रथमविभक्ति तत् न, प्रथमविभक्ति न, प्रथमपुरुषे एकवचनरूपं किं भवति, जायते, जायते इति आत्मनिपदितात्तु अस्ति, अतः लङ्लकारे अजायत इति अस्ति. हा नो चेत् अकरोत् इति इत् अन्ते भवति, किन्तु एतत् आत्मनिपदि धातुः अस्ति, अतः अजायत इति अस्ति. तावदेव. पत्नी तं सूचितवती, कं सूचितवती, हा सुदामन् सूचितवती. समीचीनं महोदय.
एतत् कृष्णस्य सायं पत्नीति सुदाम जातवान्. सुदाम जानाति एतत्तु कृष्णस्य कार्यम् अस्ति.
हा सः जानाति कृष्णस्य कार्यम् एतत् अस्ति इति सः ज्ञातवान्. एतत् श्रुत्वा यत् पत्नी उक्तवती यत् पत्नी उक्तवती, तया यद् उक्तं तत् श्रुत्वा सः जानाति, सुदामा जानाति एतत् सर्वं श्रीकृष्णस्य कार्यम् अस्ति इति. तत्र नूनम् इति अस्ति, नूनम् इत्युक्ते झटिति, इमिडियेट्लि. नूनम् अव्ययम् अस्ति, झटिति तस्मिन्नेव क्षणे अथवा इति.
महोदय एकं प्रश्नः एकः प्रश्नः, पूर्ववाक्ये कथ्यम् अकथ्यं सत्यं जानाति,
सत्यम् इति सत्यम् इति अर्थः भगिनि, सत्यं सर्वं सत्यं जानाति. हा, सत्य तथ्यम् इति सत्यम् इति अर्थे एव अस्ति. हा, किन्तु तथ्यं तत् किन्तु वाक्यं सुन्दरम् अस्ति खलु भगिनि, कथ्यम् अकथ्यं तथ्यम् इति. हा,
धन्यवादः.
हा, अस्तु अस्तु. इदानीं तत्र इदानीं कथायाः विषये कोऽपि प्रश्नः अस्ति वा? सर्वे अवगतवन्तः वा? अस्तु. अतः तत्र भानुचैतन्य महोदय, क्षम्यतां, रघुवीरानन्द महोदय, तत्र अग्रे तत्र अन्ते तत्र सुभाषितम् अस्ति, तत् पठति वा महोदय? अन्तिमे पुटे अधोभागे.
आं महोदय.
हा,
आपत्सु मित्रं जानीयात् बान्धवान् विभवक्षये.
हा,
तद् एकमेव.
एकं तस्य अधोभागे अपि त्रयमस्ति महोदय, सुभाषितत्रयमस्ति. कराविव
महोदय,
कराविव. हा, सत्यं सत्यं महोदय.
किं न जान,
पश्यामः पश्यामः.
नेत्रयोरिव पक्ष्मणि अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रमुच्यते, ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति, उक्ते भोज्यते चैव षड्विधं प्रीतिलक्षणम्.
समीचीनम्. एतत् सर्वं मित्रस्य मित्रस्य लक्षणं. सुहृद् सुहृद्यः अस्ति तस्य, अथवा मित्रम् अस्ति तस्य लक्षणम्. आपत्सु मित्रं जानीयात् बान्धवान् आपत्सु, तत्र विभक्ति का आपत्सु इति? सप्तमी बहुवचनं. हा, सप्तमी बहुवचनं. तत्र आपद् इति स्त्रीलिङ्गपदम् अग्रे आयाति, किन्तु आपत्सु इति आपत्सु किं भवति? मित्रं जानीयात्. मित्रं कः मित्रम् इति वयं ज्ञातुं शक्नुमः यदा आपत् भवति, अथवा आपत्सु मित्रं ज्ञातुं शक्नुमः. बान्धवान् कदा ज्ञातुं शक्नुमः? विभवक्षये. हा, विभवस्य क्षयं यदा भवति तत्र लास् आफ् प्रापर्टि, हा, तत्र विभवक्षये बान्धवान् ज्ञातुं शक्नुमः इति प्रथम. अग्रे तत्र कराविव शरीरस्य, हा, अपि तदनन्तरं तद् एकनिमिषः त्यजामः, द्वितीयं पश्यामः, तदा प्रथमः अपि अवगन्तुं शक्नुमः. हा, तत्र नेत्रयोः इव पक्ष्मणि. पक्ष्मणि इत्युक्ते किम्?
ऐलिड् महोदय.
हा, ऐलिड्. हा, इदानीं तत्र कराविव शरीरस्य इति किं भवितुम् अर्हति? तत्र
चर्मः वा?
करौ इति मन्ये महोदय, करौ इव शरीरस्य. करः करौ, करौ. हा, करौ इव शरीरस्य, नेत्रयोः इव पक्ष्मणि, अविचार्य प्रियं कुर्यात् तत् मित्रं मित्रम् इति मित्रम् उच्यते, सः एव वस्तुतः मित्रम् इति. अस्तु, तत्र अपि तत्र ददाति प्रतिगृह्णाति गुह्यम् आख्याति. ददाति जानीमः, प्रतिगृह्णाति इत्युक्ते सत्यं महोदय. अपि गुह्यम् आख्याति, तत्र यत् गुह्यम् अस्ति पृच्छति, आस्क्स् भुङ्क्ते, भोजयते च एव षड्विधं प्रीतिलक्षणम् इति. अस्तु, तत्र एतत् सुहृद् इति आसीत् खलु, अतः तत्र अपि आपत् इति अस्ति, तत्र मित्रं जानीयात्, मित्रं कीदृशम् इति तत्र सुभाषितरूपेण तत्र दत्तमस्ति, तावदेव. अस्तु, तर्हि इदानीं तत्र अग्रे गच्छामः, पुनः गीतासोपानं गच्छामः. तत्र गीतासोपाने द्वितीयभागे, इदानीं द्वितीयभागे, तत्र गतवर्गे तत्र गीतासोपाने तत्र प्रिण्टेड् पेज् 9 इति अस्ति, तत्र लक्ष्मी भगिनी, ललिता भगिनी, गीतासोपानपुस्तकस्य पी डि एफ् अस्ति वा?
न,
केवलं तत्र पुटद्वयं त्रयं यत् पूर्वं प्रेषितम्
अस्ति.
लक्ष्मी भगिनी, अस्ति वा? न, न, पूर्वं तत्र वर्गद्वयं वर्गत्रयं पूर्वं एकवारं तत्र गीतासोपानस्य पठनं कृतवन्तः खलु, तत्र पुटत्रयं पुटचतुर्थं किमपि वयं तत्र फैल् पी डि एफ़् फैल् आसीत्, तत्र फुल् नास्ति, फुल् नास्ति, केवलं तत्र पुटद्वयं पुटद्वयं त्रयं तत्र गच्छामः भगिनि. तत्र तत्र अस्ति वा तत्र हलन्तशब्दानां तत्र, ललिता भगिनी, तत्र सम्भाषणम् अस्ति वा? पेज् 8 अस्ति वा तत्र
पी डि एफ़् मध्ये?
पेज् 9 अपि अस्ति वा? पेज् 9 अस्ति वा? अपि 10-11 पेज्
10-11
अन्तिमम् अस्तु, समीचीनम् अस्ति. अस्तु, 11 अस्ति चेत् बहु समीचीनम् अस्ति. अस्तु भगिनि, समीचीनं, हा अस्तु. अतः तत्र पेज् 9 पश्यामः तत्र. लक्ष्मी भगिनी, अस्ति वा पेज् 9 तत्र?
पश्यामि.
हा अस्तु भगिनि, तत्र पूर्वं प्रेषितं मया, तत्र प्रिण्टेड् पेज् नम्बर् 9, तत्र कोष्टकमस्ति योगिन् इति, अधोभागे योगिन् इति. पेज् 8 मध्ये सम्भाषणम् अस्ति, आख्याहि मे को भवान् इति. तदनन्तरं कोष्टकमस्ति, टेबल् अस्ति. ललिता भगिनी, नास्ति वा?
In this 11th page and I got the 9th page, you are talking about some 2-3 weeks before, no?
Satyam.
Oh, then I have to check that mail.
Kintu bhavati uktavati asti iti tatra...
No, I thought this
page... Oh, asmi, no, kshamitam, tatra...
Okay, search for it.
अस्तु, अन्य कोऽपि तस्मिन् समये पठन्तु. तत्र रघुपति महोदय, तत्र
कुतः पठनीयं महोदय?
तत्र हलन्तशब्दानां तत्र बहुवचनरूपं दृष्ट्वा अपि इति, तत्र तदेकवारं पठतु महोदय, तत्र कोष्टकं यदस्ति.
अस्तु अस्तु, हलन्तशब्दानां बहुवचनरूपं दृष्ट्वा अपि प्रातिपदिकस्य अन्तनिर्धारणं कर्तुं शक्नुमः. यथा योगिन् इति अस्ति, अत्र बहुवचनस्य रूपम् अस्ति योगिनः, अतः वयं ज्ञातुं शक्नुमः योगिन् इति. योगी योगिनौ योगिनौ योगिनः नकारान्त
नकारान्तपदम् अस्ति इति ज्ञातुं शक्नुमः. समीचीनं महोदय. वचस् इति
वचस् इति अस्ति, तस्य बहुवचनरूपम् अस्ति वचांसि इति. अतः तत्र सकार अस्ति अन्तिम, अतः सकार एव वचस् इति. वचः वचसि वचांसि इति भिन्नमस्ति
रूपम्.
अग्रिमं सुहृद् इति अस्ति, तस्य बहुवचनरूप रूपमस्ति सुहृदः. अतः वयं ज्ञातुं शक्नुमः तत्र दकारान्तपदमस्ति इति. अतः तस्य एकवचनरूपं सुहृद् सुहृदौ सुहृदः. वाच् इति अस्ति, वाच् इति तस्य एकवचनरूपं वाक् अस्ति, परन्तु बहुवचनरूपं वाचः अस्ति. अतः वयं ज्ञातुं शक्नुमः वाच् इति वाच् इति चकारान्तपदमस्ति इति वाचः. बिषज् इति अस्ति, तस्य बहुवचनरूपं बिषजः, बिषजः इति पदमस्ति. अतः जकारान्तपदम् इति वयम् ऊहं कर्तुं शक्नुमः. बिषक् बिषजौ बिषजः. महान्तः इति अस्ति, बहुवचनरूपम् अस्ति, अतः तत्र तकार भवेत् इति प्रातिपदिकम् ऊहं कर्तुं शक्नुमः. तकार अस्ति अतः महान् इति तकार एव महत् महा यथा भवत् भवान् महत् महत् महान् महान्तौ महान्तः इति. एतेषां प्रातिपदिकानाम् अन्तिमवर्णः व्यञ्जनमस्ति. व्यञ्जनानां हल् इति नाम, अतः एते हलन्ताः शब्दाः इति उच्यते. हल् अन्ते यस्य सः हलन्तः.
तत्र यथा भवता उक्तं महोदय, तत्र वचस् इति तस्य रूपं किञ्चित् भिन्नम् अस्ति. यतः तत्र वचस् इति सकारान्तपदं तु अस्ति, किन्तु एतावत् वयं किं पठितवन्तः, तत्र पुल्लिङ्गपदानां परिचयं कृतवन्तः, किन्तु वचस् इति नपुंसकलिङ्गपदम् अस्ति. हलन्त अस्ति किन्तु नपुंसकलिङ्गपदम् अस्ति, अतः तत्र वचः वचसि वचांसि इति अस्ति. अस्तु, तत्र ललिता भगिनी प्रायशः नास्ति, अपि लक्ष्मी भगिनी नास्ति इति मन्ये. अतः वयं किं कुर्मः, तत्र गीतासोपाने अग्रे गन्तुम् इच्छामि, किन्तु एतत् कुर्मः, तत्र एकनिमिषः, तत्र एकनिमिषः, तत्र न न न चिन्ता मास्तु भगिनि, अन्यत् कर्तुं शक्नुमः. तत्र एकनिमिषः, हा एकनिमिषः, तत्र चिन्ता नास्ति, चिन्ता नास्ति. तत्र किं, तत्र हलन्तपदस्य विषये अन्यदपि करणीयमस्ति, अतः तद् कुर्मः. तत्र एकनिमिषः, तत्र अहं चाट् द्वारा एतद् लिङ्क् प्रेषयामि. तत्र हा, तत्र एतत् लिङ्क् प्रेषितवान् अस्मि, सर्वे प्राप्तवन्तः चेत् तत्र सूचयन्तु. तत्र हलन्तशब्दानां रूपाणि इति एकं करपत्रम् अस्ति, सर्वे प्राप्तवन्तः वा? गूगल् गूगल् मध्ये, गूगल् डाक्स् मध्ये. एकनिमिषम् महोदय, प्रेषयामि. पूर्णेन्द्रमहोदय अपि न प्राप्तवान् वा? पूर्णेन्द्रमहोदय प्राप्तवान्. अस्तु अस्तु,
चाट् मध्ये प्राप्तवती.
हा अस्तु अस्तु अस्तु, इदानीम् एकनिमिष
पेज् त्रय त्रीणि पृष्ठानि.
हा सत्यं सत्यं भगिनि सत्यं. रघुवीरानन्दमहोदय इदानीमेव प्रेषितवान्, तत्र प्रायशः आगतम् इति मन्ये तत्र ईमेल्. अस्तु
एकवारं,
हा समीचीनं. हा अस्तु, अतः तत्र तत्र किमस्ति गीतासोपाने, तत्र यथा रघुपतिमहोदयेन इदानीं पठितं, तत्र किमस्ति, तत्र प्रथमतया तत्र प्रथमे पुटे एव तत्र पुल्लिङ्गशब्दः स्त्रीलिङ्गशब्दः अपि नपुंसकलिङ्गशब्दानां मिश्रणं कृतम् अस्ति. अतः अत्र वयम् अद्य किं कुर्मः, तत्र वणिक् भवान् अपि आत्मा अपि सुहृद् इति तस्य अभ्यासं कुर्मः अद्य. अस्तु, तत्र तत्र सर्वे प्रायशः तत्र भवान् शब्दस्य भवत्शब्दस्य रूपाणि जानन्ति इति मन्ये. तत् प्रथमतया एकवारं वदामः, तदनन्तरं तत्र वणिज् सुहृद् अपि आत्मा इति तत्र एतत् रूपं पश्यामः. अस्तु, तर्हि तत्र रघुपतिमहोदय, तत्र भवत् शब्दस्य एकवचनरूपं, केवलम् एकवचनरूपं सर्वासु विभक्तिषु, तदनन्तरं वणिज् इति तस्यापि प्रथमविभक्ति एक, तद् पठतु महोदय.
अस्तु, वणिक् इति अस्ति, वणिक् इति जकारान्त पुल्लिङ्गपदमस्ति. वणिक्
महोदय, प्रथमतया तत्र भवान् इति शब्दस्य केवलम् एकवचने विभक्तिरूपाणि वदतु, तदनन्तरं वणिक् रूपाणि.
अस्तु, भवत् इति शब्द तकारान्त पुल्लिङ्गशब्द शब्दः भवत्, भवान् भवन्तं भवता भवते भवतः भवतः भवति. इदानीं वणिज् जकारान्तपुल्लिङ्गशब्दः वणिक् अथवा वणिक् प्रथमा, द्वितीया वणिजं, तृतीया वणिजा, चतुर्थी वणिजे, पञ्चमी षष्ठी वणिजः वणिजः, सप्तमी वणिजी, सम्बोधने वणिक् वणिग् प्रथमाविभक्ति एव.
समीचीनं महोदय. अत्र रूपं तत्र आकृतिः दृश्यते वा तत्र? यदि भवान् शब्दः जानीमः तत्र ऊहा कर्तुं शक्नुमः खलु वणिज् इति पदस्य रूपं किम् इति अस्ति इति. यदि तृतीया जानीमः, वणिजा इति जानीमः रूपं, भवता इति जानीमः, अतः भवते अस्ति चेत् वणिजे, षष्ठी भवतः अस्ति वणिजः वणिजः, भवती अस्ति वणिजि इति ऊहा कर्तुं शक्नुमः खलु इदानीं तत्र? समीचीनम्. इदानीं कामाक्षी भगिनी, तत्र भवान् शब्दः अपि आत्मा शब्दः तत्र एकवारं पठति वा भगिनी, केवलम् एकवचने रूपम्? कामाक्षी भगिनी अस्ति वा? अस्तु, अस्तु, ललिता भगिनी पठतु भगिनी, तत्र भवान् शब्दस्य एकवचनरूपाणि अपि आत्मा शब्दस्य एकवचनरूपाणि.
भवान् प्रथमविभक्ति,
केवलं प्रथमा द्वितीया मा वदतु, तत्र भवान् भवन्तम् इति.
भवान् भवन्तं, भवता भवते भवतः भवतः भवति.
इदानीम् आत्मा,
आत्मा आत्मा, आत्मानम्, आत्मना, आत्मने, आत्मनः, आत्मनः, आत्मने
इति तत्र तत्र सादृश्यं दृश्यते खलु, तत्र समानरूपम् अस्ति इति खलु,
केवलं
भवति आत्मनि, भवतः आत्मनः. किन्तु तत्र यदि भवान् शब्दस्य रूपं जानीमः, आत्मा इति पदस्य अपि रूपं ज्ञातुं शक्नुमः खलु, तत्र बहु क्लेशः नास्ति खलु तत्र? किन्तु केवलं प्रथमा अपि द्वितीया विभक्तौ रूपभेदः अस्ति तत्र. तत्र भवान् अस्ति किन्तु अत्र आत्मा इति अस्ति, अतः तत्र प्रथमा द्वितीया तत्र प्रायशः क्लेशः भवति, किन्तु तस्य अनन्तरं सुलभं भवति इति मन्ये. इदानीं तत्र एतावत् तत्र आत्मा इति दृष्टवन्तः, तत्र सुहृद् अपि एकवारं वदतु भगिनि, तत्र सुहृद् इति पदस्य विभक्ति केवलम् एकवचने.
सुहृद् अथवा सुहृत्, सुहृदं, सुहृदा, सुहृदे, सुहृदः, सुहृदः, सुहृद्, सुहृदि,
सुहृदि इति अस्ति, सुहृदि इति अस्ति. तत्र किं भवति आकारान्त तृतीया विभक्तौ आकारान्त अस्ति सुहृदा आत्मना चतुर्थी मध्ये आत्मने एकारः अस्ति सुहृदे पञ्चमी षष्टि विसर्गः अस्ति सुहृद् यत् अस्ति दकारान्तपदं तत्र सुहृद् अस्ति सुहृदः आत्मन् इति अस्ति आत्मनः इति अस्ति विसर्गः भवति तदनन्तरं सुहृद् इति अस्ति सुहृदि इकारः अस्ति अत्र आत्मन् इति अस्ति इकारः भवति खलु अतः तत्र आकृतिः सुलभमेव अस्ति खलु तत्र सुलभतया अवगन्तुं शक्नुमः आकृतिः इदानीं तत्र अतः तत्र एतत् किमर्थं वक्तव्यं चेत् तत्र बहु क्लेशकरं नास्ति इति ज्ञातुं तत्र हलन्तपदानां रूपं प्रायशः कठिनम् अस्ति इति तादृशचिन्तनं मास्तु सुलभमेव अस्ति केवलं प्रथमद्वितीयविभक्तौ किञ्चित् कार्यमस्ति तदनन्तरं सुलभमेव भवति इति अस्तु अग्रे तत्र लक्ष्मी भगिनी
महोदय
वदतु महोदय
तत्र वैकल्पिकेन सुहृत् इति रूपद्वयं किमर्थं दत्तं महोदय तत् दकारान्त अस्ति चेत् केवलं सुहृदेव
किन्तु तत्र यथा वयं विभक्ति मध्ये दृष्टवन्तः खलु महोदय तत्र तत्र अपि अन्यत् अस्ति तत्र प्रायशः मतिः इति अपि अन्यत् प्रायशः अत्र अस्ति महोदय तत्र तकारः अन्ते भवति चेत् तत् दकारः अपि भवितुम् अर्हति तत्र सन्देहे नाम न
जानामि
अतः तत्र प्रायशः तद् अपि
सुहृद् दकारान्तः नास्ति महोदय तत्र
सत्यं मम दोषः दकारान्त नास्ति अतः त अस्ति चेत् दकारं भवितुम् अर्हति किन्तु दकारं किमर्थं तकारं भवति द्रष्टव्यमस्ति महोदय समीचीनः प्रश्नः न जानामि
पदान्ते भवति महोदय पदान्ते भवति तत् सूत्रमस्ति पदान्ते अपि भवितुमर्हति
किन्तु
आमां सूत्रमस्ति वयं पठितवन्तः तत् भवति अहं पदान्ते
तदनन्तरं वदतु महोदय किम् इति
आमाम्
अस्तु धन्यवादः रघुपति महोदय अस्तु इदानीं तत्र एतावत् तत्र एकवचने रूपं कीदृशम् इति दृष्टवन्तः इदानीं बहुवचने रूपं कीदृशम् इति पश्यामः तत्र नरेश् महोदय तत्र भवान् शब्दस्य बहुवचनरूपम् एकवारं पठति वा
महोदय भवन्तः भवतः भवद्भिः भवद्भ्यः भवद्भ्यः भवतां भवत्सु
इदानीं तत्र आत्मा इति पदस्य
आत्मनः
न आत्मानः आत्मानः
आत्मानः आत्मः
आत्मनः
आत्मनः प्रथमाविभक्ति आत्मनः द्वितीय आत्मः
न महोदय तत्र न महोदय तत्र आत्मानः आत्मा आत्मानौ आत्मानः इति प्रथमाविभक्ति बहुवचनरूपम् आत्मानः द्वितीयाविभक्ति बहुवचनरूपम् अस्ति आत्मनः इति
आत्मनः तदा आत्मद्भिः आत्मभ्यः आत्मभ्यः आत्मताम् आत्मत्सु
तदनन्तरं सम्बोधनम् इदानीम् अस्तु किन्तु तत्र किम् अस्ति तत्र भवन्तः भवतः इति अस्ति तत्र आत्मानः आत्मनः इति अस्ति तत्र रूप सामान्यं नास्ति किन्तु अग्रे गत्वा भवद्भिः भिः अस्ति आत्मभिः भवद्भ्यः आत्मभ्यः तत्र यथा भवद् योगः भ्यः आत्मयोगः भ्यः तत्र आत्मभ्यः आत्मनां तत्र भवताम् इति अस्ति तदनन्तरम् आत्मसु भवत्सु इति तत्रापि तत्र प्रायशः षष्टिमध्ये नकारः आगच्छति तत्र आम् इति भवताम् इति आत्मनाम् इति तावदेव आत्मन् आत्मनां भवत् भवताम् तावदेव आत्मसु भवत्सु तत्रापि सामान्यमस्ति रूपसामान्यमस्ति खलु तत्र अपि तत्र वयं जानीमः तत्र सु इति तत्र भणिक् इति पदे तत्र किं भवति तत्र किञ्चित् भेदः भवति तत्र तत्र पूर्णेन्दुमहोदय तत्र भवत् शब्दस्य बहुवचनरूपमपि वणिच् शब्दस्य बहुवचनरूपम् एकवारं वदति वा महोदय भवत् शब्दस्य बहुवचनरूपं तदनन्तरं वणिज् शब्दस्य बहुवचनरूपं
भवत् शब्दस्य बहुवचने भवन्तः भवतः भवद्भिः भवद्भ्यः भवद्भ्यः भवतां भवत्सु इति भवति बणिज् बणिजः बणिजः बणिग्भिः बणिग्भिः बणिग्भ्यः बणिजां बणिच्छु इति
तत्र केवलं तत्र प्रथमाद्वितीयौ तत्र वणिजः वणिजः अत्र सामान्यमस्ति यद्यपि यत् पुल्लिङ्गपदमस्ति नपुंसकलिङ्गपदमिव अस्ति तत्र बहुवचने किन्तु भवत् शब्दस्य भवन्तः अस्ति भवतः इति रूपमस्ति किन्तु तदनन्तरं वणिग्भिः वणिग्भ्यः वणिग्भ्यः वणिजां वणिक्षु इक्षु इति तत्र सु यत्र अस्ति तत्र क अपि इक्षु इति वयं जानीमः खलु तत्र रामेषु इति यत् अस्ति तत्र शु सकारः भवति शुकारः अपि भवति अत्र वणिक् अपि क्षु इति मिलित्वा तत्र वणिक्षु इति रूपं भवति किन्तु सामान्यमस्ति खलु महोदय तयोः मध्ये अपि तत्र द्विवचने कोऽपि क्लेशः भवति वा द्विवचने तत्र द्विवचने किं भवति वयं सर्वे जानीमः तत्र भ्यां भ्यां भ्याम् इति त्रिवारम् आगच्छति तदनन्तरम्
अकारान्त पुल्लिङ्ग एव महोदय
अकारान्तपुल्लिङ्गे किमर्थं महोदय
अकारान्तपुल्लिङ्गे एव दृश्यते
बालकशब्दवत्
सत्यं सत्यं इव दृश्यते सत्यं महोदय सत्यं तत्र वणिग्भ्यां 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 भवद्भ्यां 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 तदनन्तरं वणिजोः वणिजोः भवतोः भवतोः अतः तत्र बहु क्लेशः नास्ति केवलं तत्र प्रथमाविभक्तिरूपं द्वितीयविभक्तिरूपं तत्र किञ्चित् अवधानम् आवश्यकम् अस्ति तावदेव अतः तत्र वयम् अग्रिमे वर्गे किं कुर्मः तत्र अग्रिमवर्गस्य पूर्वं तत्र गृहपाठरूपेण किं कुर्मः तत्र भवत् शब्दस्य रूपं जानीमः रूपाणि जानीमः अग्रिमे वर्गे तत्र आत्मा अपि वणिक् इति द्वयस्य रूपाणि किञ्चित् कण्ठस्थीकर्तुं प्रयत्नं कुर्मः भवान् इति जानीमः तत्र आत्मा अपि वणिज् झकारान्तपदं नकारान्तपदं तकारान्तपदम् एकमेकं तत् अग्रिमवर्गस्य पूर्वं कृत्वा वर्गे तत्र तस्य अभ्यासं कुर्मः अस्तु तर्हि तत्र एतावत् पर्यन्तं कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये तत्र गीतासोपने वयं किं कुर्मः इत्युक्ते तत्र एतावत् पुल्लिङ्गशब्दानाम् अभ्यासं कृतवन्तः यत् करपत्रे अस्ति तदस्ति सामान्यपुल्लिङ्गरूपाणि हलन्तपदानां पुल्लिङ्गरूपाणि तत्र पश्यतु तत्र किं किम् अस्ति तत्र वणिज् अस्ति जकारान्त भवत् इति तकारान्त सुहृद् इति दकारान्त आत्मन् इति नकारान्त अपि मरुत् इति तकारान्त अस्ति प्रायशः तत्र स्तम्भरूपेण गन्तव्यमस्ति तत्र जकारान्त वणिज् दकारान्त सुहृद् तकारान्त मरुत् अस्तु पुनः तकारान्त भवत् नकारान्त आत्मन् नकारान्त राजन् राजन् शब्दः अपि आत्मन् शब्दः तत्र किञ्चित् भेदः अस्ति तत्र. तदनन्तरं नकारान्तगुणिन् शब्दः, सकारान्तविद्वस् शब्दः, तदनन्तरं तावदेव तत्र. अतः तत्र किं षड् अष्टरूपाणि, अष्टरूपाणि सामान्यरूपाणि सन्ति तत्र. तदनन्तरं हलन्तशब्दानां स्त्रीलिङ्गरूपाणि, तत्र एकमस्ति तत्र चकारान्तवाच् शब्दः, वाचि इति कथायां दृष्टवन्तः. तदनन्तरं स्रज् इति अस्ति, स्रक्. तदनन्तरं सरित् इति अस्ति, दिश् इति अस्ति. तदनन्तरं शकारान्त आशिष्, अप्सरस् इति. तावदेव तत्र स्त्रीलिङ्गे. तदनन्तरं हलन्तशब्दानां नपुंसकलिङ्गरूपाणि. अतः तत्र बहु किमपि नास्ति. एतद् यदि तत्र कण्ठस्थीकर्तुं शक्नुमः इदानीमेव न, किन्तु गीतासोपानस्य द्वितीयभागस्य समाप्तिः समये एतद् यदा कण्ठस्थी भवति चेत् बहु समीचीनं भवति, लाभः अस्ति. अतः किन्तु अग्रिमे वर्गे केवलं तत्र भवान् शब्दस्य, भवत् शब्दस्य, आत्मन् शब्दस्य, अपि वणिच् शब्दस्य तस्य प्रयत्नं कुर्मः. अस्तु, तर्हि तत्र रघुवीरानन्दमहोदय अन्ते तत्र शान्तिमन्त्रं वदति वा?
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय.
धन्यवादः महोदय.
धन्यवादः.
सर्वेषां धन्यवादः.